इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। राष्ट्रपतिः पदासीना द्रौपदी मुर्मुः इत्येषा यूनः वैद्यान् समाजस्य तेभ्यः वर्गेभ्यः कार्यं कर्तुं निवेदितवती येभ्यः चिकित्सा सेवा सर्वाधिकम् अपेक्षिता, अपि च अनेकेषु ग्रामीण जनजातीय क्षेत्रेषु अद्यापि उच्च गुणवत्ता युक्त स्वास्थ्य सेवायाः अभावः अस्ति इत्यपि सा अवोचत्। एम्स गोरखपुर इत्यस्य प्रथम दीक्षांत समारोहं संबोधयन्ती सा वैद्यान् चिकित्सक रोगी संवाद विषयम् अवगन्तुं निवेदितवती। सममेव उक्तवती यत् वैद्याः उपचारे करुणायाः भूमिकां जानिरन्।
डॉक्टरों का समाज और देश के विकास में अत्यंत महत्वपूर्ण योगदान होता है। ये केवल रोग का इलाज नहीं करते बल्कि एक स्वस्थ समाज की नींव भी रखते हैं। जब देश के नागरिक स्वस्थ होते हैं तो उनकी कार्य करने की क्षमता भी बढ़ती है और ये राष्ट्रों की उन्नति में भागीदारी बन सकते हैं। इसके लिए जरूरी है कि डॉक्टरों की सेवाएं ग्रामीणों और दूर दराज क्षेत्रों में भी उपलब्ध हो।
इतः पूर्वं राष्ट्रपतिः पदासीना द्रौपदी मुर्मुः उत्तरप्रदेशस्य बरेली नगरे भारतीय पशु चिकित्सा संशोधन संस्थायाः एकादशतमं दीक्षांत समारोहं सम्बोधितवती। प्रधानमन्त्री नरेन्द्र मोदी बुधवासरात् आरभ्य घाना, त्रिनिदाद, टोबैगो, अर्जेंटीना, ब्राजील, नामीबिया इति पञ्च राष्ट्राणां यात्रायां भविष्यति। नवदेहल्यां विशिष्ट वार्ताहर संवादं संबोधयन् विदेश मन्त्रालयस्य आर्थिक सम्बन्ध सचिवः दम्मु रविः अवोचत् यत् प्रधानमन्त्री पञ्च राष्ट्राणां यात्रायाः प्रथमे चरणे आगामि मासस्य द्वितीय तृतीय दिनांके घाना देशस्य यात्रां करिष्यति। एतत् तस्य प्रथमा द्विपक्षीया घाना देशस्य यात्रा भविष्यति। सः अवदत् यत् श्रीमोदी घाना देशस्य राष्ट्रपतिना सह वार्तालापं करिष्यति। द्वयोः राष्ट्रयोः सशक्त द्विपक्षीय सहभागितायाः समीक्षा भविष्यति तथा च आर्थिक ऊर्जा रक्षा सहकार्यं विकास सहकार्य सहभागितां च वर्धयितुं बहुविध चर्चा भविष्यति। विदेश मंत्री डॉक्टर सुब्रह्मण्यम जयशंकरः अमेरिका देशस्य पञ्चदश्यां यात्रायां गमिष्यति। अमेरिका देशीय विदेश मन्त्रिणः मार्को रूबियो इत्येतस्य निमन्त्रणे त्रिदिवसीयायाम् आधिकारिक्यां यात्रायां डॉक्टर जयशंकरः अमेरिका देशं सम्प्राप्नोत्। यात्रायाः अन्तर्गतं डॉक्टर जयशंकरः अद्य समायोक्ष्यमाणे क्वाड विदेश मन्त्रिणाम् उपवेशने भागं गृहीष्यति। विदेश मन्त्रालयस्य वक्तव्यानुसारेण क्वाड समूहः हिन्द प्रशान्ताय सामूहिक दृष्टिकोणस्य संवर्धनाय नव प्रस्तावेषु ध्यान केन्द्रीकरणं करिष्यति। अवधेयास्पदं वर्तते यत् उपवेशनं पहलगाम आक्रमणानन्तरं क्वाड मन्त्रिणां प्रथमं उपवेशनं स्यात्। केन्द्रीय गृहमन्त्री अमित शाहः नवदेहल्यां मन्थनोपवेशनस्य अध्यक्षताम् अकरोत्। एषः कार्यक्रमः 25th-2000th अन्ताराष्ट्रिय सहकार वर्षस्य उत्सवरूपेण आयोज्यते। सः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना सहकारिता मन्त्रालयस्य स्थापना कृता, येन देशे दीर्घकाल परम्परारूपेण विद्यमानस्य सहकारभावस्य वर्तमान परिप्रेक्ष्ये च पुनरुत्थानं क्रियते। भारतीय ऋतु विज्ञान विभागेन इदं पूर्वानुमानं प्रदत्तं यत् सम्पूर्णे देशे जुलाई मासस्य मासिक सामान्य वृष्टिः सामान्यात् अधिकं भविष्यति। भारतीय ऋतु विज्ञान विभागस्य महानिदेशकः डॉक्टर मृत्युंजय मोहपात्र इत्यनेन आभासिके पत्रिका सम्मेलने उक्तं यत् देशस्य अधिकांश भागेषु सामान्याद् अधिकं वर्षा सम्भाव्यते। सः एतदपि अवदत् यत् जुलाई मासे पूर्वोत्तर भारतस्य पूर्व भारतस्य च अधिकांश भागेषु तथा दक्षिण भारतीय द्वीपस्य दक्षिण भागेषु सामान्यतः न्यून वृष्टिः स्यात् इति वार्ताः।